भो शिक्षा आचार्य द्वितीय सत्रार्धस्य छात्रः शिक्षायां सूचना प्रविधि संप्रेषण प्रविधिश्च इत्यस्य पत्रस्य चतुर्थ अन्वित्यः द्वितीय बिंदु वर्तते पारंपरिक जनसंचार साधनानि नाटकं नृत्यं पुत्तलिका क्रीडा च। अद्य वयम् अस्मिन् विषये जानीमः। कस्यापि जनस्य अपरेण जनेन सह सूचनानाम् आदान प्रदानस्य काला एव संचार इति उच्यते। परन्तु यदा तस्य एतत् कार्यं व्यापकताम् आप्नोति अर्थात् अनेकेषां जनानां मध्ये सूचनानाम् आदान प्रदानं समूहे एकस्मिन् एव समये भवति तदा एषा प्रक्रिया संचारः इति उच्यते। अधुना प्रश्नः समागच्छति यत् पारम्परिकजनसञ्चारसाधनानि कानि। यानि साधनानि प्राचीनकालादेव सूचनानां विचाराणां मनोविनोदकसञ्चाराणां च कृते प्रयुक्तानि भवन्ति एतानि सर्वाणि साधनानि परम्परागतसाधनानि भवन्ति। एतेषु साधनेषु मुख्यानि सन्ति लोकनृत्यं लोकगीतं नाटकानि पुत्तलिका क्रीडा इत्यादीनि च। परम्परागतजनसञ्चारसाधनानां विशेषता। परम्परागतजनसञ्चारसाधनैः प्राप्तज्ञानं स्वाभाविकं विश्वसनीयं स्वीकार्यं च भवति। द्वितीय परम्परागतजनसञ्चारसाधनानां भाषा सरला सुग्राह्या च भवति। तृतीय एतानि साधनानि सुलभानि भवन्ति। चतुर्थ एतेषु नम्यता फ्लेक्सिबिलिटी अपि भवति। परम्परागतसाधनानि ग्रामीणपरिवेशे ये निवसन्ति तेषां कृते अतीव महत्वपूर्णानि भवन्ति। एतानि साधनानि यानि सन्ति तेषां कतिपयः दोषाः अपि सन्ति यथा प्रायः एतानि साधनानि रूढिवादिनि सन्ति विशिष्टसमूहः यावत् सीमितानि भवन्ति नवीनतायाः अभावो वर्तते। नाटकं शब्दो अयं नट धातुः निष्पन्नो भवति निष्पन्नो वर्तते यस्य अर्थाः सन्ति नृत्यम् अभिनयः अनुकरणं च। पाश्चात्यविद्वांसः अस्य उत्पत्तिविषये विभिन्नकल्पनं कृत्वा न इदं भारतीयम् इति स्थिरीकरणे प्रयत्नमानः दृश्यन्ते। एतद् अधिकृत्य आङ्ग्ल जर्मन् फ्रेञ्च् आदिभाषासु लिखितो ग्रन्थसमूहो वर्तते। तत्र इन्द्रध्वजमहोत्सवात् रामकृष्णलीलात् ऋतुपरिवर्तनात् पुत्तलिकानृत्यात् छायानाटकात् ग्रीस् देशात् वा अस्य उत्पत्ति जाता इति प्रतिपादितम्। किन्तु जर्मन् विद्वद्भिर् एव एतेषां खण्डनं कृत्वा वैदिकसंवादानात्मक सूक्तेभ्यः एव अस्य उत्पत्तिर् उरुकृता। नाटकानां विशेषता। नाटकेषु लोकहितस्य लोक अनुरञ्जनस्य च भावना अधिका भवति। इदं जनसामान्यस्य वस्तु अस्ति। इदं भिन्नरुचियुतानां जनानां सन्तुष्टे एकमात्रं साधनम् अस्ति। इदं मानसिकशान्तिमपि प्रददाति। नाटकसाहित्यस्य उद्भवविषये विद्वत्सु मतभेदाः सन्ति। पिशेल नामक पाश्चात्यविद्वान् पुत्तलिका नाम क्रीडया नृत्येन च नाटकसाहित्यस्य उद्भवं मन्यते। समालोचकः अस्य मतस्य खण्डनं कुर्वन्ति। तेषां मतानुसारेण पुत्तलिकानां नृत्यात् नाटकं प्राचीनतरम् अस्ति। वैदिकयुगे शैलूष नामक जातेः जनः व्यावसायिकरूपेण नाटकानाम् आयोजनं कृत्वा जीविकोपार्जनं कुर्वन्ति स्म। महाभारते अपि नाटकानां शिल्पसम्बन्धिविधानाम् अधिकं स्पष्टीकरणं प्राप्यते। अस्मिन् नट नर्तक नायक सूत्रादीनां स्पष्टो उल्लेखो प्राप्यते। कौटिल्यस्य अर्थशास्त्रे अपि एतद् वर्णनं प्राप्यते यत् यस्मिन् समये नट नर्तक गायक वादक कुशीलप्लवक ऐन्द्रजालिक चारणादीनां विभिन्नः समूहः गीत्वा वादयित्वा नाटकं कृत्वा च जनसञ्चारं सूचनानां प्रसारणं च कुर्वन्ति स्म। काष्ठपुत्तलिका विश्वस्य प्राचीनतम रङ्गमञ्चे आयोजमानः मनोरञ्जककार्यक्रमो अस्ति। कार्यक्रमे अस्मिन् विविधानि पात्राणि अभिनयं कुर्वन्ति, यस्य चालनं प्रदर्शनकर्ता करोति। काष्ठपुत्तलिका नृत्यं लोकनाट्यस्य एव एका शैली वर्तते। पाणिनिमहाभागस्य नट्यसूत्रे अपि पुत्तला इत्यस्य नाम्ना नायकस्य उल्लेखो मिलते। सिंहासन बत्तीसी इत्यस्मिन् नाटके विक्रमादित्य महाभागस्य सिंहासनस्य द्वात्रिंशत् पुत्तलिकानाम् उल्लेखो प्राप्यते। पुत्तलिकाकलायां नैकानां कलानां सम्मिश्रणं दृश्यते, यथा लेखनं नाट्यकला चित्रकला वेशभूषा मूर्तिकला काष्ठकला वस्त्रनिर्माणकला रूपसज्जा संगीतं नृत्यं च। शारीरिक मानसिक रूपेण ये अविकसित बालकाः सन्ति तेषां विकासाय अपि पुत्तलिका कला सहायिका भवति। पारंपरिक जनसंचार साधनै सरलतया सम्यक रूपेण विचाराणां संप्रेषणं भवति। पुत्तलिका नैकधा भवन्ति। अस्मिन् विषये प्रदत्त लिंक माध्यमेन विस्तरेण भवन्तः पठयन्तु।